ओम नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः। सूत उवाच, तत्र गोमिथुनं राजा हन्यमानमनाथवत् दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनं वृषं मृणालधवलं मेहन्तमिव बिभ्यतं वेपमानं पतैकेन सीदन्तं शूद्रताडितं गां च धर्मदुघां दीनां वृषं शूद्रपदाहतां विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् पप्रच्छरथमारूढः कार्दस्वरपरिच्छदम् मेघगम्भीरया वाचा समारोपितकार्मुकः कस्त्वं मच्छरणे लोके बलाद्धंस्य बलान् बली नरदेवोऽसि वेषेण नटवत्कर्मणा द्विजः यस्त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना शोच्योऽस्य शोच्यान् रहसि प्रहरन् वधमर्हसि त्वं वा मृणालधवलः पादैर्न्यूनः पदाचरन् वृषरूपेण किं कश्चिद्देवो न परिखेदयन् न जातु पौरवेन्द्राणां दौर्दण्डपरिरम्भिते भूतलेऽनुपतन्त्यस्मिन् विनाते प्राणिनां शुचः मा सौरभेयानुशुचो व्येतुते वृषलाद्भयं मा रोदीरम्बभद्रं ते खलानां मयि शास्तरि यस्य राष्ट्रे प्रजा सर्वास्त्रस्यं ते साध्व्यसाधुभिः तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः एष राज्ञां परो धर्मो यार्तानामार्तिनिग्रहः अत एनं वधिष्यामि भूतद्रुहमसत्तमम् को वृश्चत्तव पादान् स्त्रीन् सौरभेयचतुष्पद मा भुवन्स्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् आख्याहि वृषभद्रं वः साधूनाम कृतागसाम् आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् जनेनागस्य घं युञ्जन् सर्वतोऽस्य च मद्भयम् साधूनां भद्रमेव स्यादसाधुदमने कृते अनागस्व्यभूतेषु य आगस्कृण्निरङ्कुशः आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् शासतोऽन्यान्यथा शास्त्रमनापद्युत्पथानिह। धर्म उवाच, एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः येषां गुणगणैः कृष्णौ दौत्यादौ भगवान् कृतः न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ पुरुषं तं विजानीमो वाक्यभेदविमोहिताः केचिद्विकल्पवसना आहुरात्मानमात्मनः दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः। अत्रानुरूपं राजर्षे विमृशस्वमनीषया। सूत उवाच, एवं धर्मे प्रवदति स सम्राट् द्विजसत्तम समाहितेन मनसा विखेदः पर्यचष्टतम्। राजोवाच, धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् यदधर्मकृतस्थानं सूचकस्यापि तद्भवेत्। अथवा देवमायाया नूनं गतिरगोचरा चेतसो वचसश्चापि भूतानामिति निश्चयः। तपःशौचं दया सत्यमिति पादाः कृते कृताः अधर्मांशैस्त्रयो भग्ना स्मयसङ्गमदैस्तव इदानीं धर्मपादस्ते सत्यं निर्वर्तयेद् यतः तं जिगृक्षत्य धर्मोऽयमनृते नैधितः कलिः। इयं च भूर्भगवता न्यासितोरुभरा सती श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना अब्रह्मण्या नृपव्याजा शूद्रा भोक्ष्यन्ति मामिति इति धर्मं महीं चैव सान्त्वयित्वा महारथः। निशातमददे खड्गं कलये धर्महेतवे तं जिगांसुमभिप्रेत्य विहाय नृपलाञ्छनम् तत्पादमूलं शिरसा समगाद्भयविह्वलः पतितं पादयोर्वीरः कृपया दीनवत्सलः शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव। राजोवाच, न ते गुडाकेश यशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः लोभो नृतं चौर्यमनार्यमं हो ज्येष्ठा च माया कलहश्च दम्भः न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ब्रह्मा वर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितान विज्ञाः यस्मिन् हरिर्भगवानिज्यमान इज्या मूर्तिर्यजतां शन्तनोति कामानमोघान् स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा। सूत उवाच, परीक्षितैवमादिष्टः सकलिर्जातवे पथुः तमुद्यतासि माहेतं दण्डपाणिमिवोद्यतम्। कलिरुवाच, यत्र क्वचन वत्स्यामि सार्वभौमतवाग्यया लक्षये तत्र तत्रापि त्वामात्तेषु सरासनम् तन्मे धर्मभृतां श्रेष्ठस्थानं निर्देष्टुमर्हसि यत्रैव नियतो वत्स्यात्तिष्ठन्स्तेऽनुशासनम् सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ द्यूतं पानं स्त्रियः सूना यत्रा धर्मश्चतुर्विधः पुनश्च याचमानाय जातरूपमदात् प्रभुः ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् अमूनि पञ्चस्थानानि यधर्मप्रभवक्कलिः औत्तरेण दत्तानि न्यवसत्तन्निदेशकृत् अथैतानि न सेवेत बभूषुः पुरुषः क्वचित् विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः विषस्य नष्टान् स्त्रीन् पादान् तपःशौचं दयामिति प्रतिसन्धताश्वास्य महीं च समवर्धयत् स एष एतर्यध्यास्त आसनं पार्थिवोचितं पितामहेनोपन्यस्तं राज्ञारण्यं विवक्षता आस्ते धुनास राजर्षि कौरवेन्द्रश्रियोल्लसन् गजाव्वये महाभागश्चक्रवर्ती बृहत्स्रवाः इत्थं भूतानुभावोऽयमभिमन्युसुतो नृपः यस्य पालयत क्षोणीं यूयं सत्राय दीक्षिताः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।